एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य विरूद्धे संसदि पञ्जीभूतस्य महाभियोग प्रस्तावस्य विषये अद्य विमृश्यते। प्रतिनिधिसभायाः अद्य उपविश्यमाने उपवेशे प्रधान न्यायाधीशस्य जबरा इत्यभिधेयस्य महाभियोग प्रस्तावे विमर्शनस्य कार्यसूची संसद सचिवालयेन प्रकाशिता वर्तते। संघीय संसद सचिवालयेन प्रकाशितायाः दैनिक कार्यसूच्याः सम्भावित कार्यक्रमस्य अन्तर्गते चतुर्थ सूत्रे प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य विरूद्धे संसदि पञ्जीभूत महाभियोग प्रस्तावमा आधृत्य विमर्शन कार्यक्रम समाविष्टो वर्तते। अद्यतन दिवसाय निर्धारिताय सम्भावित कार्यसूच्या चतुर्थ सूत्रे गत वैक्रमाब्दस्य फाल्गुन मासस्य उनत्रिंशत् दिवसस्य उपवेशे सांसदेन देवप्रकाश गुरूङ इत्यनेन नेपालस्य संविधानस्य एकोत्तर शततम्या धाराया द्वितीयोपधाराया प्रतिनिधिसभा नियमावल्याश्च अनुसारेण प्रस्तुतं प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य विरूद्धे पञ्जीभूतम् महाभियोग प्रस्तावमाधृत्य विमृश्यते इत्युल्लिखितम् वर्तते। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति राजनीतिक स्थायित्वाय समृद्धये विकासाय च राष्ट्रस्य ध्यानं केन्द्रितं वर्तते। जापान देशस्थेन नेपाली जनप्रगतिशील मञ्चेन जापान देशस्य फुकुओस्थाने आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड निर्वाचनानन्तरं निर्मात्स्यमानेन स्थिरेण सुदृढेण च सर्वकारेण आर्थिक विकासं प्राथमिकतायां संस्थाप्य अग्रे वर्धिष्यते इति विश्वासम् अभिव्यनक। अध्यक्ष प्रचण्ड विदेश स्थितानां नेपालीनां शिल्पम् अनुभवश्च नेपालस्य विकासाय प्रयुक्तव्यमिति चर्चयन् एतेन राष्ट्रस्य आर्थिक विकासाय महत्वपूर्ण सहयोग प्राप्यते इति विश्वासं व्यक्तवान्। जापान भ्रमणस्य क्रमे अध्यक्षस्य प्रचण्डस्य जापान देशस्थेन नेपाली जनप्रगतिशील मञ्चेन आयोजितेषु विभिन्नेषु कार्यक्रमेषु सहभागितया सहैव जापान देशस्य सत्तारूढस्य रिवलर डेमोक्रेटिक दलस्य नेतृभिः सह मेलवार्तायाः कार्यक्रमोऽपि वर्तते। अध्यक्ष प्रचण्डः अस्यैव श्रावणमासस्य पञ्चविंशे दिवसे नेपालं प्रत्यागन्ता। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति आगामिनां दश वर्षाणाम् अभ्यन्तरे नेपालः दक्षिणैशैक क्षेत्रस्यैव धनी सन्ततेः राष्ट्रस्य रूपेण विकासयिष्यते। बाललेखिकया गीता पछाई इत्यनया लिखितं प्रोटल नामकं पुस्तकं ह्यः काष्ठमण्डपे विमुञ्चन् सर्वकारस्य प्रवक्ता मन्त्री कार्की अवोचत् नेपालं धनी राष्ट्रस्य रूपेण विकासयितुं नेपाली नागरिक समाजस्य साहित्य कलाकारिता क्षेत्रस्य अन्येषां क्षेत्राणां च समाना भूमिका भवति। मन्त्री कार्की नेपाली साहित्य क्षेत्रस्य संरक्षणाय विकासाय च नवीन सन्ततिं प्रोत्साहयितुं बलम् अदात्। कार्यक्रमे नगरीय विकास मन्त्री मेटमणि चौधरी अगदत् नेपाली साहित्यिक क्षेत्रेण समाज परिवर्तनाय विहितं योगदानं सम्मान्य साहित्य क्षेत्रं संरक्षितुं वर्धयितुं च सर्वकारः प्रतिबद्धो वर्तते। उद्योग वाणिज्य आपूर्ति मन्त्री दिलेन्द्र प्रसाद बडु भाषते देश विकासाय सर्वै राजनीतिक दलै एकीभूय प्रवर्तनीयम्। खाद्य व्यवस्था व्यापार संस्थानस्य दार्चुला शाखा कार्यालयं ह्य उद्घाटयन् मन्त्री बडु अगदत् देश विकासाय राजनीतिक्या अस्थातः उपरि उत्थाय सर्वै एकीभवनीयम्। संस्थानस्य पीत शाखा कार्यालयस्य पुनः सञ्चालनं सुखदं प्रारम्भणम् अस्तीति भाषमाणः मन्त्री बडु कार्यालयस्य स्थापनाय अनन्तरं खाद्यापूर्त्या सह अस्य क्षेत्रस्य उत्पादनस्य आपणीकरणाय अपि महत्वपूर्णः सहयोग प्राप्स्यतीति विश्वासं व्यक्तवान्। नेपाली कांग्रेस दलस्य महामन्त्री गगन थापा आसन्न निर्वाचने एकीभूय सक्रिया भवितुं नेतृ कार्यकर्तृ निर्दिशति। भक्तपुरे ह्य आयोजिते कार्यक्रमे असौ अवदत् कांग्रेस दलं बहुमतोन्मुखस्य विपुल दलस्य रूपेण स्थास्यतीति विषय स्थानीय स्तराणां निर्वाचनेन प्रदर्शितो वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शशांक कोइराला ब्रुते संविधानस्य रक्षायै प्रतिनिधिसभायाः प्रदेशसभानाञ्च निर्वाचने सत्तारूढ गठबन्धनस्य दलेषु समन्वयः आवश्यको वर्तते। संचारकर्मीभिः सह ह्यः चितवन जनपदे भाषमाणः असौ नेपाली कांग्रेस दले निर्वाचने एकाकिना योद्धुं सामर्थ्यं सदपि संविधानस्य रक्षायै देशस्य विकासाय स्थिरतायै च समन्वयः विधेयोऽस्तीति स्पष्टीकृतवान्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य दलस्य प्रदीप पौडेलः भाषत आगामि निर्वाचने कांग्रेस दलस्य प्रत्याशीनां सुदृढीकरणस्य विषये चिन्तनस्य समयः आगतोऽस्ति। असौ प्रत्याशिताय अनुमति प्रदानात् प्रत्याशीनां विजयीकरणं यावत् मार्गचित्रम् अधुनात एव निर्मातव्यम्। देशाय स्थिर सर्वकारं प्रदातुं पदाधिकारिभिः दायित्ववायिभिः प्रस्तोतव्यमिति च धारणां व्यक्तवान्। वन वातावरण मन्त्री प्रदीप यादव वदति सर्वकारीय वनस्य भूमे अतिक्रमणं निरोध्यते। सर्लाही जनपदस्य ईश्वरपुर नगरपालिकायाः चतुर्थ वडा क्षेत्रे निर्मितस्य सशस्त्र वन रक्षक शिविर भवनस्य उद्घाटन कार्यक्रमे ह्यो मन्त्री यादवः अवदत् वनस्य भूमेः कस्यामपि अवस्थायाम् अतिक्रमणं कर्तुं न दीयते, वनतस्कराः विदेह परिदौच आनीयन्ते। मन्त्री यादवः गृहभूमिहीनानां जनानां नाम्नि पिहितम् विहितं भूमेः अतिक्रमणम् उन्मोच्य केवलं वास्तविकेभ्यो गृहभूमिहीनेभ्यो जनेभ्यो भूमिं प्रदातुं प्रतिबद्धताम् अभिव्यनक। युवक्रीडामन्त्री महेश्वर जंग गतराजः कथयति राष्ट्रस्य विकासाय समृद्धये च वैदेशिक वृत्त्युपार्जनात् प्रत्यावृतानां यूनां शिल्पज्ञानानुभवान् उपयुज्य अग्रे वर्धनीयम्। राष्ट्रिय युव परिषदा ह्य भक्तपुरस्य सानोठिम स्थाने वैदेशिक वृत्त्युपार्जनात् प्रत्यावृतानां यूनां कृते आयोजिते प्रशिक्षण कार्यक्रमे मन्त्री गतराजः अगदत् राष्ट्रे विद्यमानानां वृत्त्युपार्जनहीनतायाः विपन्नतायाः अभावस्य च समस्यानां समाधानाय सर्वैः मिलित्वा प्रयतनीयम्। असौ राष्ट्रे विद्यमानायाः वृत्त्युपार्जनहीनतायाः समस्यायाः समाधानाय प्रकृत्या एव अवसरः प्रदत्तोऽस्तीति तर्कयन् यूनः निराशाः न भवितुम् अन्वरुणत्। उपसभामुखः पुष्पा गौतम भूषालः कथयति शिक्षायाः विकासाय बुद्धिजीविभिः ऐक्यबद्धैर्भाव्यम्। महापण्डितस्य दधिराम मरासिनी इत्यस्य चत्वारिंशदधिक शततम्याः जन्मजयन्त्याः अवसरे दधिराम मरासिनी स्मृति प्रतिष्ठानेन ह्यः काष्ठमण्डपे आयोजितं सम्मानाभिनन्दन पुस्तक विमोचन कार्यक्रमं सम्बोधयन्ती उपसभामुखः भूषालः एवम् अभाषत। तदवसरे संस्कृत नेपाली साहित्यस्य विशिष्ट विद्वान प्राध्यापक गोपीकृष्ण शर्मा गौतमः राजनीतिक सामाजिक क्षेत्रे सक्रिय शारदा गौतमः शान्तिदेवी उपाध्यायश्च अभिनन्दिताः आसन्। समारोहे प्रतिष्ठानस्य उपाध्यक्ष पूर्वमन्त्री मोदनाथ प्रसृतः प्राध्यापकः डा वासुदेव त्रिपाठी च पौराणिक विषयम् आधृत्य लिखितानि त्रीणि काव्यानि सामाजिकम् उपन्यासं च व्यमुञ्चताम्। कार्यक्रमे नेपाल संस्कृत विश्वविद्यालयस्य पूर्वोपकुलपतिः प्राध्यापकः माधव राज गौतमः अन्ये वक्तारश्च दधिरामस्य वैदुष्यं प्राकाशयन्। आराष्ट्रम् ह्यः षट्शते जनेषु कोरोना विषाणोः संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। संक्रमणात् ह्यः चतुश्चत्वारिंशदुत्तर चतुश्शतं जनाः मुक्ताः सन्ति। संक्रमणेन ह्यः एको जनः मृतः। ह्यः विंशति सहस्राणि षट्षष्ट्यधिक षट्शतं च जनाः कोरोना विषाणोः प्रतिरोधी टीकाकरणम् आददत्त इति स्वास्थ्य मन्त्रालयः सूचयति। तनहु जनपदे संचालितेषु ऊनविंशत्यां शिलाखण्डोत्पादनोद्योगेषु दश उद्योगाः पञ्जीकरणेन विनैव संचाल्यमानाः सन्ति। अन्ये नव शिलाखण्डोत्पादनोद्योगाः पञ्जीकरणेन सह संचालिताः सन्तोऽपि मापदण्डानां पूरणस्य अभावेन एतेषाम् उद्योगानां नवीकरणम् अवरोधितम् अस्तीति जनपद समन्वय समित्या ज्ञापितं वर्तते। कस्यापि शपथस्य पूरणेन पञ्जीकरणेन च विना उद्योगाः सञ्चाल्यमानः सन्तीति सूचना प्राप्तेः कारणेन पिधानाय निर्णयं कृत्वा सम्बद्ध पालिकासु परिपत्रं विहितमिति जनपद समन्वय समितेः प्रमुखः शान्तिरमण वाग्ले ज्ञापितवान् इति समाचाराः।